ॐ येन धौता गिरपुंसां विमलैः शब्दवारिभिः समस्ताज्ञानजं भिन्नं तस्मै पाणिनये नमः। ॐ श्रीगुरुभ्यो नमः। हरिः ओम्। सर्वेभ्यः नमः महोदय।
सर्वेभ्यो नमः। धन्यवादः भगिनी। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषयः अस्ति तत्र शत्रुशानज् प्रत्ययः प्रत्ययौ तयोः विषये वयं तत्र बहु किमपि अतीतवन्तः। इदानीं तत्र एका कथा अस्ति तत्र करपत्ररूपेण प्रेषिता कथा अस्ति, अतः तत्र तां कथां पठामः। गतवर्गे अपि किञ्चित् पठितवन्तः।
आम् आम् आम्।
किन्तु पुनः आरम्भतः पठामः। तर्हि तत्र अस्तु, उषा भगिनी आरम्भं करोति वा?
आं महोदय। सत्सङ्गतिः कथय, किं न करोति पुंसान्? अनादिकालात् प्रचलन्त्याम् अस्माकं परम्परायां बहवः वैदिकाः ऋषयः अभवन्। न केवलं वैदिककाले किन्तु इदानीमपि अनेक ऋषयः कठोरं तपः समाचरन्तः दृश्यन्ते। महर्षिः वसिष्ठः, महर्षिः विश्वामित्रः च वैदिककालीनौ ऋषी आस्ताम्। उचिते वयसि यतो चित्तं व्रतं पालयन्तौ तौ महान्तौ तपस्विनौ अभवताम्। योग्याद् गुरोः स्वाध्यायम् अधीयमानौ तौ ज्ञानिनौ सञ्जातौ। एवं तयोः उभयोः पार्श्वे तु ज्ञानस्य भण्डार एव आसीत्।
अस्तु अस्तु, इदानीं तत्र पङ्क्तिशः किञ्चित् वदति वा?
आं महोदय। सत्सङ्गतिः कथय, किं न करोति पुंसाम् इति अस्ति। पुंसाम् इत्युक्ते पुरुषाणामपि वक्तुं शक्नुमः वा महोदय?
पुंसां प्राय बहुवचने, षष्ठी बहुवचने इति एव अस्ति इति मन्ये भगिनि।
न, पुरुषाणामपि सम्यक् अस्ति वा महोदय?
न, सत्यं सत्यं, जनानां सत्सङ्गति इत्युक्ते किम् इति कथायाम् अस्ति, कथायाम् अस्ति। सत्सङ्गति नाम अपि कथय, कथय इति
कथय मध्यमपुरुष एकवचनम् अस्ति तत्र।
किं न करोति तत्र करोति इति क्रियापदं, कर्तृपदं किम् अस्ति?
सत्सङ्गतिः।
हा, सत्सङ्गति किं न करोति पुंसाम् इति कथय इति अस्ति। अस्तु, शुभ भगिनी, नमस्कारः।
नमस्ते महोदय।
नमस्कारः भगिनी। हा, अस्तु।
अनादिकालात् प्रचलन्त्यां, तत्र शत्रुप्रत्यय अस्ति, सप्तमी विभक्ति एकवचने। अस्माकं परम्परायां बहवः वैदिकाः ऋषयः अभवन्। के अभवन् इत्युक्ते ऋषयः अभवन्। कीदृशी ऋषयः इत्युक्ते बहवः वैदिकाः ऋषयः अभवन्। कति वैदिकाः ऋषयः अभवन्? बहवः वैदिकाः ऋषयः अभवन्।
नाम तत्र अभवन् इत्युक्ते किं? तत्र पूर्वं तत्र कोऽपि वैदिकः अस्ति, वैदिकः इत्युक्ते कः?
यः वेदम् अनुसरन्ति।
हा, समीचीनं, नाम वेदं प्रमाणम् इति स्वीकुर्वन्ति, वेदप्रामाण्यम् अङ्गीकुर्वन्ति ते वैदिकाः। तत्र वैदिकाः आसन्, किन्तु सर्वे ऋषयः न अभवन्, किन्तु बहवः वैदिकाः ऋषयः अपि
अभवन्।
नाम अभवन् इति अस्ति चेत् नाम तत्र पूर्वं ते ऋषयः न आसन्, न आसन्, किन्तु किमपि कृत्वा किमपि अभवत्, तदनन्तरं ते ऋषयः अभवन्। कुत्र एतत् सर्वम्? अस्माकं
परम्परायां
प्रचलन्त्याम् अस्ति अस्माकं परम्परा, परम्परा प्रचलन्त्यां परम्परायाम् एक प्रथमविभक्त्यां रूपं किं
प्रचलति परम्परा
प्रचलन्ति
प्रचलन्ति परम्परा
अनादिकालात्
अस्माकं परम्परा प्रचलन्ती आसीत् तस्यां परम्परायां बहवः वैदिकाः सन्ति अपि च तेषु
नाम सर्वे वैदिकाः एव सन्ति यतोहि अस्माकं परम्परायां तत्र सर्वे वेदा वेदस्य प्रामाण्यम् अङ्गीकुर्वन्ति अतः सर्वे वैदिकाः इति अपि वक्तुं शक्नुमः किन्तु तेषु
बहवः वैदिकाः ऋषयः अभवन्
हा इति अस्तु अग्रे
न केवलं वैदिककाले किन्तु इदानीमपि अनेक ऋषयः कठोरं तपः अनेके ऋषयः कठोरं तपः समाचरन्तः दृश्यन्ते तत्र तपः नपुंसकलिङ्ग अस्ति तपः शब्दस्य समाचरन्तः संयोगः आचरन्तः आचरन् एकवचने आचरन् आचरन्तौ आचरन्तः बहुवचने
अस्ति
दृश्यन्ते लट् आत्मनेपदी दृश्यते दृश्येते दृश्यन्ते बहुवचने अस्ति तत्र
समीचीनं तर्हि तत्र समाचरन्तः इति अस्ति तत्र के समाचरन्तः
के समाचरन्तः अनेके ऋषयः कठोरं तपः
समीचीनं हा तर्हि तत्र पुनः तत्र तपः इति पदं नपुंसकलिङ्गम् इति भवती उक्तवती तस्य विशेषणमस्ति कठोरं तपः इति कर्मपदं तत्र समाचरन्तः इति अस्ति समाचरन्तः के समाचरन्तः अनेके
ऋषयः
इदानीं तत्र अनेके ऋषयः तत्र कठोरं तपः इति त्यजामः अनेके ऋषयः समाचरन्तः दृश्यन्ते तर्हि तत्र कर्तृपदं किम् अस्ति तस्मिन् वाक्ये अनेके ऋषयः समाचरन्तः दृश्यन्ते
ऋषयः
दृश्यन्ते इति क्रियापदं खलु
क्रियापदं
कर्तृपदं किं तर्हि तत्र
ऋषयः
तत्र दृश्यन्ते इति
न
कठोरं तपः त्यजामः कठोरं नाम ते समाचरन्तः इति अस्ति तत्र ऋषयः एव समाचरन्तः सन्ति किन्तु समाचरन्तः इति तस्य कर्मपदमस्ति तपः खलु
तपः ऋषयः दृश्यन्ते
इदानीं ऋषयः दृश्यन्ते इति अस्ति केवलं ऋषयः दृश्यन्ते इति वाक्यं स्वीकरोतु तत्र दृश्यन्ते इति
कीदृशः
क्रियापदं कीदृशप्रयोगः
भावः अस्ति दृश्यन्ते
भावे नास्ति किन्तु
भावे नास्ति
दृश्यन्ते इति अस्ति चेत् भावे न भवितुं
दृश्यते दृश्यते दृश्यन्ते
नाम भावप्रयोगे नियमः अस्ति सर्वदा प्रथमपुरुषे एकवचने एव खलु किन्तु अत्र बहुवचनरूपम् अस्ति अतः भावप्रयोगः नास्ति किन्तु कर्मणि तु अस्ति समीचीनं कर्मणि तु अस्ति तर्हि कर्मणि प्रयोगे तत्र नियमः कः कर्तृपदस्य
त्रीणि एकम् एकम् अस्ति
हा कर्तृपदस्य तृतीयाविभक्ति कर्मपदस्य
प्रथमाविभक्ति
अपि क्रियापदं पदम् अनुसरति
कर्मपदम् अनुसरति
अत्र ऋषयः दृश्यन्ते इत्युक्ते
ऋषयः दृश्यन्ते कठोरं तपः
कठोरं तपः त्यजतु
केवलं वैदिककाले
तत्सर्वं मास्तु केवलं ऋषयः दृश्यन्ते इति नाम ऋषयः दृश्यन्ते तत्र जनाः दृश्यन्ते इति अस्ति चेत् तत् कर्मणि प्रयोगः खलु
जनाः दृश्यन्ते आं महोदय
हा तर्हि तत्र जनाः इति कर्मपदं भवति खलु यतोहि प्रथमविभक्त्याम् अस्ति खलु
आं महोदय
तथैव अत्रापि ऋषयः दृश्यन्ते, प्रथमविभक्तिः अस्ति, अतः तत्र कर्तृपदं किं भवेत्? अस्माभिः ऋषयः दृश्यन्ते.
अस्माभिः इत्युक्ते तृतीय बहुवचनं.
हा नाम तत्र दत् न दत्तम् अस्ति, किन्तु तदेव अत्र अपेक्षितमस्ति खलु, नाम इदानीमपि वयं तादृशान् ऋषीन् द्रष्टुं शक्नुमः खलु. किं भगिनि?
बै अस्.
सत्यम्, अतः अस्माभिः
अस्माभिः
केन् बि सीन् बै अस् इति अस्ति, केन् बि सीन् बै बै हुं बै अस् इति खलु. अतः अनेके ऋषयः समाचरन्तः, कठोरं तपः समाचरन्तः दृश्यन्ते. कैः? अस्माभिः. अस्तु अग्रे.
महर्षिः वसिष्ठः, महर्षिः विश्वामित्रः च वैदिककालीनौ ऋषी आस्ताम्. ऋषी ऋषिः ऋषी द्विवचने अस्ति,
प्रथमं
आस्तां लङ्लकारे अस्ति, वैदिककालीनौ अपि द्विवचने अस्ति. महर्षिः वसिष्ठः अपि च विश्वामित्रः वैदिककालीनौ ऋषी आस्ताम्. वैदिककालीनौ इत्युक्ते तस्मिन् काले ऋषी आस्ताम्.
हा वैदिककालीनौ नाम वैदिककाले ते आसन्, तस्मिन् समये वेदस्य काले ते
आसन्
आस्ताम्.
लङ्गलकारः
ऋषि आस्ताम्.
उचिते वयसि यथोचितं व्रतं पालयन्तौ तौ महान्तौ तपस्विनौ अभवताम्. अभवताम् लङ्गलकारः अस्ति तत्र. पालयन्तौ पालयन् पालयन्तौ शत्रुप्रत्ययः अस्ति. द्विवचनम् द्विवचने अस्ति. महान् महान्तौ महान्तः तत्रापि द्विवचने. तपस्विनौ अपि तपस् द्वितीय द्विवचने अस्ति. यतो
समीचीनं. तत्र उचिते वयसि नाम किमस्ति?
उचिते सप्तमी वयसि अपि सप्तमी विभक्त्याम् अस्ति. यथा
वयः वयः इति
वयस्
प्रथमविभक्तिरूपं सकारान्त नपुंसकलिङ्गं. समीचीनं भगिनि. तत्र उचितं वयः उचिते वयसि
वयसि यथोचितं व्रतं पालयन्तौ.
यथोचितं यथोचितं नाम यथा उचितं.
व्रतं पालयन्तौ
उचितं व्रतं यथा उचितं व्रतं पालयन्तौ
ते तौ 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 महान्तौ महान् महान्तौ तपस्विनौ अभवताम्.
नाम ते अभवतां नाम वसिष्ठः अभवत् तत्र अभवताम् इति अस्ति. अभवताम् इति किमस्ति?
प्रथमपुरुष द्विवचने अस्ति. अभवत् अभवताम् लङ्लकारे.
तर्हि तत्र महर्षि वसिष्ठः
अपि च विश्वामित्रः.
हा किन्तु एकवचने वदतु तत्र.
महर्षि वसिष्ठः अभवत्
अभवत् किं
तपस्वी अभवत्
महान् तपस्वी अभवत् यथोचितं व्रतं पालयन्
पालयन् सः
सः महान् तपस्वी
अभवत्
अभवत्
तथैव विश्वामित्रः अपि.
हा अस्तु समीचीनं भगिनि. इदानीम् अन्य कोऽपि पठति उत्तममस्ति भगिनि. हा अस्तु अग्रे तत्र नरेश् महोदय अग्रे.
महोदय अत्र अस्तु योग्यात् गुरोः स्वाध्यायम् अधियानौ तौ ज्ञानिनौ सञ्जातौ योग्याद् गुरोः स्वाध्य यदा ते गुरोः तत्तु पञ्चमी विभक्ति अस्ति तत्र स्वाध्यां कृतवन्तौ ते तदा ज्ञानिनौ सञ्जातौ
तत्र अधीयानौ इति
स्वाध्यायम् अधीयानौ योग्यगुरोः तत्र ते तौ अधीयानं कृतवन्तौ
नाम तत्र स्वाध्यायम् अधीयानौ अधीयानौ तत्र तत्र किञ्चित् विशिष्ट
प्राप्तवन्तौ इति वा स्वाध्यायं प्राप्तवन्तौ
नाम तत्र तत्र चिन्तितवन्तौ अथवा कृतवन्तौ अथवा प्राप्तवन्तौ अथवा तादृश किन्तु तत्र अहं चिन्तयामि तत्र प्रायशः तत्र अध्ययनम् इति सम्बद्धपदम् इति मन्ये अधीयानौ इति
शत्रुरूपं
इ इति धातु सत्यं भगिनि इ इति धातु इति मन्ये
तत्र महोदय अधि इति उपसर्गसहित इ धातुः
करेक्ट्
अध्ययने एव अस्ति अपि च तत्र अधीयानः इति शानच्
आमामां शत्रु क्षम्यतां तत्र नास्ति धन्यवादः भगिनि शानज्जेव ईकारः अस्ति इ इति धातुः अस्ति खलु तर्हि तत्र तत्र दीर्घ इकारः खलु भगिनि तत्र
दीर्घ
अधीयानौ
दीर्घ इति वा अथवा
उपसर्गे अधि
ह्रस्व
परन्तु प्रासेस्
तत्र
सूत्रेण दीर्घ भवति मन्ये अधि उपसर्गः ह्रस्व अस्ति
ओ
परन्तु केनापि सूत्रेण दीर्घ अधि दीर्घ भवितुं किमर्थं भवति इति न जानामि परन्तु
न तत्र अकसवर्णे दीर्घः खलु भगिनि तत्र अधियोगः इ अधि इति भवति
ओ ओ रैट् रैट् करेक्ट्
अस्तु अस्तु
धातुः ह्रस्व इ
धातुः ह्रस्व इ अस्तु लट् लकारे
अधि तत्र सर्वत्र
अधीयते
विना उपसर्गः उपसर्गरहित
अधीते इति अस्ति महोदय अधीते अधीयाते अधीयते
लट्लकारे
लट्लकारे लट्लकारे
लट्लकारे दीयते दीयेते
न अधीते
अधीते
न उपसर्ग विना अस्ति न भवती उक्तवती उपसर्गविना
उपसर्गविना रूपं किमस्ति भगिनि
दीयते
यकारः किमर्थम्
आत्मनेपदी रूपमस्ति यकारः किमर्थं चेत्
केवलम् इते
गणगणम् भवति न तत्र दिवादिगणे
अस्ति
दिवादिगणे अस्ति
तत्र गणद्वयं मध्ये इति मन्ये भगिनि तत्र अध्ययने इति एकस्मिन् गणे भवति अध्ययने इति अदादिगणे दत्तमस्ति
धीधातु यकारायाति अन्यपि धीधातु अस्ति वा न जानामि अहं
धातु तु इ अस्ति
अपि च धी अपि एकं धातुः अस्ति
अत्र तु अधि तु उपसर्गः अस्ति, धातु इ अस्ति,
धातुतः आयाति.
आमामां प्रायशः तत्र महोदय तत्र एषः द्रष्टव्यमस्ति, किन्तु मम मनसि स्मरणमस्ति तत्र ई धातोः, ई धातुः विशिष्टः अस्ति, नाम सर्वदा अधियोगः एव तस्य प्रयोगः भवति इति खलु.
उपसर्ग विना नास्ति,
नास्ति नास्ति तस्य प्रयोगः न भवति इति. किं किं कोऽपि विशिष्टगुणः अस्ति महोदय एतस्य, अतः एव तत्र ई इति धातुः अस्ति, किन्तु सर्वदा तत्र अधीत इति एव रूपम्.
ई धातु इङ् अध्ययने अदादिगणे अस्ति तत्र.
अस्तु अस्तु हा अस्तु, धन्यवादः शोभगिनी, नमस्ते, धन्यवादः वेदभगिनी, धन्यवादः. अस्तु, अतः तत्र अधीयानौ इति, अधीयानः इति शानज्, समीचीनम्, अधीयान इति शानज्. हा
तत्र अधीयान इते इति भवति महोदय, किन्तु तादृशः प्रयोगः अस्ति वा इति न जाने.
कुत्रापि श्रुतम् इति चिन्तयामि भगिनी, तत्र
प्रायशः
कुत्र प्राय प्रायशः तत्र किं नीलेश बोदास् महोदयस्य वीडियो मध्ये एव अथवा
चेत् अस्ति एव महोदय.
तादृशं तत्र तत्र अधीते इति एव तादृशरूपं भवति, अथवा तत्र प्रायशः तत्र हेग्डे महोदयस्य पुस्तके तादृशम् अस्ति इति. तत्र उपसर्ग विना तस्य प्रयोगः न भवति
सर्वदा
इति. अस्तु समीचीनम्, अतः तत्र तत्र ई धातोः इदानीं तत्र सम्यक् ज्ञानम् अभवत् अस्माकम्. अतः तत्र अधीयानौ इति शानज्, अस्तु स्वाध्याय अधीयानौ
तौ ज्ञानौ जातौ, वयमपि वयमपि ज्ञानिनः सञ्जातः.
अतः तत्र समीचीनं महोदय, अतः तत्र स्वाध्यायम्, अतः एव तत्र अध्ययनं तत्र इति, तत्र अधीयानः स्वाध्यायम् अधीयानः सः ज्ञानी ज्ञानी सञ्जातः, तौ तत्र सञ्जातौ. अस्तु अग्रे.
एवं तयोः उभयोः पार्श्वे तु ज्ञानस्य भण्डार एव आसीत्.
तर्हि तयोः उभयोः पार्श्वे तु ज्ञानस्य भण्डारः एव
आसीत्,
नाम ज्ञानस्य सीमा एव तत्र, तयोः ज्ञानस्य सीमा वयं न वक्तुं, सीमा का इति न वक्तुं शक्नुमः. तत्र तयोः उभयोः इति द्विवचने अस्ति,
किन्तु महर्षि वशिष्ठ अस्ति, महर्षि विश्वामित्र अस्ति
अस्ति अपि तत्र षष्ठी वा सप्तमी वा तत्र
षष्टि अस्ति तयोः,
तयोः तत्र पार्श्वे इति अस्ति, नाम
पार्श्वे अस्ति,
पार्श्वे अतः षष्टि.
पार्श्वे इत्युक्ते किं महोदय?
समीपे
समीपे
नाम मम समीपे पुस्तकमस्ति, मम पार्श्वे पुस्तकमस्ति.
अस्तु
नाम तत्र मम हस्ते नाम तत् मम इति अर्थे, मम पार्श्वे नाम मम पुस्तकम् अस्ति इति अर्थः खलु. तादृशं तत्र तयोः पार्श्वे ज्ञानस्य भण्डारः एव आसीत् इत्युक्ते तन्नाम तयोः ज्ञानं ज्ञानभण्डारमेव अस्ति आसीत् इति. अस्तु अग्रे पठित्वा
अनयोः महर्षिः विश्वामित्रः जात्या क्षत्रियः स्वभावेन क्रोधी अपि आसीत्. विश्वामित्र महर्षि विश्वामित्र तु जात्या क्षत्रियः आसीत्, अतः तस्य स्वभावं क्रोधी आसीत्.
तत्र क्रोधी इति पदं पदपरिचयं करोतु, कीदृशपदमस्ति तद्?
क्रोधिन्,
हा क्रोधिन्, हा तत्र अर्थः कः?
सा क्रोधं करोति.
हा नाम तस्य क्रोधः अस्ति, क्रोधम् अस्ति नाम हा सः कुपितः, शीघ्रं कुपितः भवति खलु इति.
क्षत्रिय क्षत्रिय आसीत् तदा क्रोधी आसीत्.
नाम तत्र किमस्ति, तत्र इनि प्रत्ययः, यस्मिन् क्रोधः अस्ति सः क्रोधिन् इति. अतः तत्र क्रोधिन् इति पदस्य प्रथमविभक्तिरूपं क्रोधी इति.
परन्तु उग्रवाणी
तत्र अनयोः इति अस्ति, अनयोः इति तत्र पुनः द्विवचने, किन्तु विभक्ति
सप्तमी.
हा नाम तेषु
तेषु
तत्र समूहः अस्ति, अत्र तु केवलं सदस्यद्वयमस्ति इति कृत्वा अनयोः इति अस्ति, नो चेत् तत्र तेषु अथवा एतेषु इति.
महोदय तत्र एकः विशेषः अपि अस्ति वा, तत्र पाण्डवानां युधिष्ठिरः ज्येष्ठः, पाण्डवेषु युधिष्ठिरः ज्येष्ठः इति द्वयमपि भवति तत्र निर्धारणे इति कृत्वा तत्र अनयोः इत्यस्य अपि अर्थद्वयं भवति इति अस्ति खलु महोदय?
सप्तमी, हा सप्तमी मध्ये, हा मां भगिनि तत्र सप्तमी निर्धारणे अपि भवति खलु सप्तमी,
हा अपि च षष्टि अपि.
हा
द्वयमपि
भवितुम् अर्हति तर्हि भगिनि. समीचीनं समीचीनं भगिनि, हा सत्यमेव, हा तत् द्वयमपि भवितुम् अर्हति. अहं चिन्तितवान् केवलं समूहे एकः इति, किन्तु तत्र एषः एव तत्र विशिष्टः इति अर्थे एषः एव क्रोधी आसीत् इति कृत्वा प्रायशः तत्र निर्धारणे इति अपि वक्तुं शक्नुमः. समीचीनं भगिनि, हा
अग्रे. परन्तु उग्राणि तपांसि समाचरता तेन ब्रह्मर्षिषु स्थानं प्राप्तं. सः क्रोधी आसीत् परन्तु सः तपं कृतवान्.
तपम् इति नास्ति महोदय, सः किं कृतवान्?
तपः.
तत्र मनः मनसि मनांसि इव तपः, तपः
उग्रतपः,
न न न उग्रं तपः,
उग्रं तपः, सत् करेक्ट्,
उग्रं तपः.
आम्
उग्रे तत्र द्विवचने किम् अस्ति?
उग्रे उग्रे
समीचीनं, तर्हि उग्रं तपः, उग्रे तपसि, उग्राणि
तपांसि. समाचरता तेन ब्रह्मर्षिषु स्थानं प्राप्तम्. अत्र कर्मणि
किमस्ति? तेन
कर्मणि अस्ति,
भूतकालार्थे खलु तत्र प्राप्तम् इति,
प्राप्तं भूतकाले
कृतप्रत्ययस्य प्रयोगः. तत्र मया पठितं पुस्तकं, तत्र किमस्ति? तेन प्राप्तं. किमस्ति?
ब्रह्मर्षिषु प्राप्तं स्थानं, स्थानं प्राप्तं.
समीचीनं, स्थानं प्राप्तं नाम सः ब्रह्मर्षिषु स्थानं प्राप्तवान्. कीदृशः अस्ति सः? नाम समाचरता तेन इति अस्ति तत्र,
तपांसि समाचरता,
समाचरता तेन इति विभक्तिका तत्र
तृतीया विभक्ति.
प्रथमविभक्त्या रूपं किं?
समाचरन्,
सः 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 समाचरन्. तर्हि सः उग्राणि तपांसि तत्र कर्तृरूपे वदतु प्राप्तवान् इति अन्ते भवेत्
तत्र शत्रुप्रत्ययः अस्ति न महोदय
सत्यं भगिनि हा हा सत्यं तर्हि परन्तु
परन्तु उग्रं तपः
तपांसि
उग्राणि तपांसि समाचरन् सः ब्रह्मर्षेषु स्थानं प्राप्तवान्
इति अस्ति समीचीनं महोदय तथैव अस्ति अग्रे
महोदय ब्रह्मर्षिषु कीदृशपदं महोदय
ब्रह्मर्षिषु भगिनि
सप्तमी बहुवचनं
बहुवचनं
ब्रह्मर्षिः
ब्रह्मर्षिः किम् अस्ति महोदय
ब्रह्मर्षिः
ब्रह्मर्षिः
ब्रह्मर्षिः ब्रह्मर्षिः नास्ति ब्रह्मर्षिः
ब्रह्मर्षिः ओके
हा तत्र समासः भवति समासः वा सन्धि वा इति किमपि कार्यमस्ति न स्मरामि ब्रह्मर्षिः
अस्ति खलु सन्धि अस्ति खलु ब्रह्मर्षिः क्षम्यतां विलम्बेन आगच्छामि कोऽपि समस्या अस्ति मोबैल् मध्ये समस्या उद्भवति अतः विलम्बेन आगच्छामि
अस्तु भगिनि चिन्ता मास्तु किन्तु सम्यक् समयेन आगतवती तत्र उत्तरं दत्तवती अस्तु समीचीनं भगिनि
धन्यवादः
सन्धि सन्धि भवति अस्तु समीचीनं अस्तु अग्रे
ॐ ॐ भूर्भुवः स्वः तत्सुवितुर्वरेणयं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयादयात् इति प्रसिद्धं गायत्रीमन्त्रं समाजाय प्रयच्छता तेन अचिरात् प्रसिद्धिः लब्धा
अस्तु इदानीं तत्र केवलं तत्र गायत्रीमन्त्रम् इति चिन्तयामः तत्र किम् इति मास्तु पुनः तस्य उच्चारणं मास्तु केवलं प्रसिद्धं गायत्रीमन्त्रं
सः समाजाय दत्तवान्
हा समीचीनं नाम तत्र प्रयच्छता तेन इति अस्ति तत्र पुनः प्रथमाविभक्तिरूपं किम् अस्ति
सः प्रयच्छत प्रय अप्रयच्छत्
न न यथा भवान् उक्तवान् समाचरत इति समाचरन्
प्रयच्छन् प्रयच्छन् सः
प्रयच्छन् सः सः किम् इदानीं तत्र तेन अचिरात् प्रसिद्धिः लब्धा इति पुनः तत्र लब्धा इति कर्मणि
कर्मणि अर्थभूतकाले
अतः तत्र पुनः कर्तृरूपं वदत् तर्हि तत्र सः प्रयच्छ
प्रयच्छन् सः अचिरात् प्रसिद्धि लब्धवान्
प्रसिद्धिं लब्धवान्
प्रसिद्धिं लब्धवान्
प्रसिद्धिः इति स्त्रीलिङ्गपदम् अतः एव तत्र प्रसिद्धिः तेन प्रसिद्धिः लब्धा लब्धा इति विशेषणमस्ति प्रसिद्धिः तेन लब्धा का लब्धा तेन प्रसिद्धिः तेन लब्धा अचिरात् अचिरात् नाम शीघ्रतया
शीघ्रतया
तत्र विलम्बः एव नास्ति अचिरात् झटिति झटिति एव सः प्रसिद्धिः लब्धवान् तत्र समाजाय इति अस्ति किमर्थं चतुर्थी अस्ति तत्र
तत्तु समाजकृते अस्ति अतः चतुर्थी
किन्तु किमर्थं चतुर्थी
किमर्थं तो
गायत्रीमन्त्रं
प्रयच्छता कृते वा प्रयच्छता कृते
प्रयच्छन् सः प्रयच्छत् सः दत्तवान् खलु खलु नाम प्रयच्छन् इत्युक्ते दानं कृतवान् खलु नरेश् महोदय
अस्तु
नाम पूर्वं गायत्रीमन्त्रं तस्य ज्ञानं कस्यापि नासीत् सः
दत्तवान् दानं कृते तत् चतुर्थी विभक्ति अस्तु
अतः एव चतुर्थी समीचीनम् अतः एव सः तत्र दत्तवान् तत्र दानं कृतवान् तत्र समाजाय सर्वे तत्र एतत् जपन्तु इति अतः तत्र समाजाय कस्मै दत्तवान् समाजाय दत्तवान् इति अस्तु समीचीनं महोदय अस्तु अग्रे तत्र वेदा भगिनी अग्रे पठति वा
आं महोदय जपतः जनान् अभीष्टफलं प्रददति गायत्री लोके कामधेनुरूपेण प्रसिद्धिं प्राप्तवती जपतः जनान् जपतः जनान् यः जपः कारितः ते जनान्
भगिनि तर्हि तत्र एकवारं
जपतः इत्युक्ते
प्राप्तवती प्राप्तवती इति स्वीकुर्मः प्राप्तवती का प्राप्तवती
जपतः जनान् जनान् प्राप्तवान्
न का प्राप्तवती का प्राप्तवती इत्युक्ते
का किं प्राप्तवती
न किम् इति न का का अस्ति प्राप्तवती इत्युक्ते
का का प्राप्तवती गायत्री
हा गायत्री प्राप्तवती अस्तु गा इदानीं समीचीनं तर्हि गायत्री प्राप्तवती गायत्री किं प्राप्तवती इदानीम् अथवा कां प्राप्तवती
प्रसिद्धिं प्राप्तवती गायत्री
प्रसिद्धिं प्राप्तवती अस्तु अपि तत्र मध्ये तत्र लोके इति अस्ति हा लोके
कुत्र प्राप्तवती लोके
हा लोके कुत्र प्रसिद्धिं प्राप्तवती लोके प्राप्तवती समीचीनं हा तत्र मध्ये पुनः अन्यत् पदमस्ति कामधेनुरूपेण नाम कामधेनुरूपेण प्रसिद्धिं प्राप्तवती इत्युक्ते अर्थः कः
कामधेनुवत् इति
हा नाम गायत्री सर्वं तत्र ये इच्छन्ति
ते अभीष्टफलं
ददाति
प्रददाति
इति अतः तत्र कामधेनु इव तत्र कामधेनु किं करोति यद् इच्छामः तद् धेनुः दास्यति तथैव तत्र गायत्रीमन्त्रम् अपि अथवा गायत्रीदेवी अपि दास्यति इति अतः तत्र कामधेनुरूपेण
कं दाय इति वदामि वा तत्र
प्रसिद्धिमिति तत्र स्त्रीलिङ्गपदमस्ति यतोहि पूर्वं दृष्टवन्तः प्रसिद्धिः लब्धा अतः कां प्राप्तवती प्रसिद्धिं प्राप्तवती तत्र कामधेनुरूपेण प्रसिद्धिं प्राप्तवती लोके इति अस्ति अस्तु इदानीं तत्र गायत्री पूर्वं किं पदमस्ति
गायत्री पूर्वम् अभीष्टफलं प्रददति इति दृष्टवन्तः
नाम तत्र
कामधेनु वत् अभीष्टफलं गायत्री ददाति गायत्री
अस्तु समीचीनम् अतः तत्र गायत्री अभीष्टफलं ददाति अथवा प्रददति तत्र प्रददति इति तत्तु शत्रन्तरूपं खलु स्त्रीलिङ्गे
प्रददन्
प्रददति प्रददति इति एव इदानीं नाम सा ददाति अथवा स प्रददाति
कान् ददाति इति जनान् ददाति कीदृशजनः जपतः नास्ति वा
प्रददति जपतः जनान्
जपतः जनान् अभीष्टफलं प्रददति गायत्री लोके कामधेनुरूपेण प्रसिद्धं प्राप्तवती
प्राप्तवती
तत्र तान् जपतः जनान् इति भवति
तत्र किं भगिनि
तत्र द्वितीय भवति तान् कृते इति भवति अथवा तेषां कृते
द्वितीय बहुवचनमस्ति जपतः जना
बहुवचनं
किन्तु जपतः जनान्
हा जपतः तत्र द्वितीय बहुवचने शतुप्रत्ययः जपन् जपन्तौ जपन्तः जपन्तं जपन्तौ जपतः इति भवति महोदय
अस्तु अस्तु समीचीनं भगिनि अस्तु समीचीनं तर्हि तत्र जपन् जनः जपतः जनान् इति द्वितीय बहुवचने हा अस्तु तत्र
जपतः शत्रुप्रत्ययः अस्ति तत्र
समीचीनं हा किन्तु तत्र
ददति इति अस्ति इति कृत्वा वा महोदय
हा नाम तत्र अभीष्टपदं प्रददति इति अस्ति तत्र तर्हि तत्र प्रददति इति तत्र किं भवति तत्र
प्रददति तत्र शत्रुप्रत्ययः पुनः प्रददति
सत्यं भगिनि किन्तु तत्र यदि दानक्रिया अस्ति चेत्
अभीष्टफलं प्रददति प्रददति गायत्री अभीष्टफलं प्रददति गायत्री लोके कामधेनुरूपेण प्रसिद्धिं प्राप्तवती
हा तावत् समीचीनमस्ति भगिनि हा अभीष्टफलं
महोदय तत्र प्रा इति उपसर्गस्य योजनेन किमपि तत्र चतुर्थी न आवश्यकं वा
इति एव चिन्तनं
सामान्यतया धातोः कृते तु चतुर्थीः एव तत्र
दातु अस्ति चेत् चतुर्थी
अतः एवं चिन्तितवान् तत्र
अत्र तु चतुर्थी न आवश्यकं गायत्री तत्तु प्रथमा अस्ति तस्य विशेषणमस्ति प्रददति तदपि प्रथमविभक्ति
सत्यं महोदय इदानीं किन्तु क्लेशः कुत्र अस्ति इत्युक्ते गायत्री लोके कामधेनुरूपेण प्रसिद्धिं प्राप्तवती तत्र क्लेशः नास्ति खलु सर्वं सम्यक् अस्ति अस्तु इदानीं अतः तत् त्यजामः तद् मास्तु इदानीं किम् अस्ति जपतः जनान् अभीष्टफलं प्रददति गायत्री इति
सामान्यतया दाधातोः कृते
हा तत्र
दाने दाने
दाने अस्ति चेत् तत्र तेषाम् अथ तत्र अभीष्टफलम् इत्युक्ते तेषाम् अभीष्टफलम् इति चिन्तयामि खलु नाम
ओ
तेषां किन्तु हा तत्र मम मनसि कष्टता नास्ति
द्वितीय किमर्थम् इति
किमर्थम् इति स्पष्टता नास्ति किन्तु अग्रे सरामः तत्र अन्वेषणं कुर्मः तत्र किमर्थं तत्र प्रददति इति किमपि विशेषनियमः अत्र अस्ति न वा इति
चिन्तनीयम्
अस्तु
मुक्तिं कामयमानैः जनैः गायत्रीमन्त्रस्य शक्त्या भास्वतः सूर्यदेवात् सद्बुद्धिः प्रार्थ्यते मुक्तिं
तर्हि प्रार्थ्यते इति कर्तृ वा कर्मणि वा
प्रार्थ्यते कर्मणि इति
हा अतः तत्र नियमः कः कर्मणि प्रयोगस्य तत्र कर्तृपदं
तृतीय कर्म प्रथम अपि च
क्रियापदं
क्रियापदम् अपि प्रथम
क्रियापदं प्रथम न क्रियापदं
क्रियापदं कर्मम् अनुसरति
कर्मपदम् अनुसरति कर्मपदम् अनुसरति तर्हि अत्र प्रार्थ्यते तर्हि कर्तृपदं तृतीयविभक्त्यां भवेत्
किमस्ति कर्तृपदं काम्य जनैः इति कर्तृपदं तृतीयविभक्ति
कामयमानैः जनैः समीचीनम् जनैः इति समीचीनं
कामयमानैः तत्र कामयमानः मान शानचरूपमस्ति
मानचरूपं समीचीनं तर्हि लघुवाक्यं स्वीकुर्मः समीचीनं भगिनि तर्हि जनैः प्रार्थ्यते इति
कामयमानः जनः
इति अस्ति किन्तु इदानीं केवलं तत्र प्रार्थ्यते इति अन्वयः तत्सर्वं लघुरूपेण कुर्मः तर्हि तर्हि प्रार्थ्यते, जनैः प्रार्थ्यते. इदानीं तत्र जनैः इति प्रार्थ्यते, कर्तृपदं जनैः,
समीचीनं. कर्मपदं मुक्तिं प्रार्थ्यते,
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 हा प्रार्थ्यते. नाम प्रार्थयते इति तत्र णिच् रूपं भवति खलु भगिनि, न तु कर्मणि. अतः प्रार्थ्यते,
प्रार्थ्यते.
इदानीं कर्मपदं किमस्ति?
मुक्तिं.
न न न, मुक्तिमिति नास्ति, यतोहि मुक्तिं तु द्वितीयविभक्त्याम् अस्ति खलु.
ओ आम् 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 आम्. तत्र कर्मफलं प्रथमा विभक्ति भवति, तत्र गायत्रीमन्त्रस्य शक्त्या भास्वतः सूर्यदेव सद्बुद्धिः.
हा, जनैः सद्बुद्धिः प्रार्थ्यते. समीचीनं, हा जनैः सद्बुद्धिः प्रार्थ्यते. इदानीं सर्वं योजयामः. तत्र कीदृशजनः अस्ति?
कामयमानैः जनैः, काम्यमानः.
हा, जनः कामयते. किं कामयते जनः?
मुक्तिं
कामयते. इदानीं तत्र तादृशमुक्तिं कामयमानाः जनाः सन्ति, तैः
सद्बुद्धिं प्राप्यते.
तैः सद्बुद्धिः प्राप्यते. तत्र सद्बुद्धिः कस्मात् प्राप्यते, कः ददातु इति चेत् तेषां चिन्तनं?
गायत्रीमन्त्रस्य शक्त्या भास्वतः सूर्यदेवात् प्राप्यते.
हा, इदानीं तत्र सूर्यदेवात् सद्बुद्धिः प्राप्यते, नाम सूर्यदेवः सद्बुद्धिं ददातु इति. कामयमानः
जनाः
नाम मुक्तिं कामयमानः जनाः,
मुक्तिं कामयमानः सूर्यदेवात्,
सूर्यदेवात् तत्र प्रार्थ्यते, सद्बुद्धिः प्रार्थ्यते. इदानीं तत्र भास्वतः इति अस्ति, भास्वतः इति किमस्ति?
तदपि षष्ठी पञ्चमी विभक्ति एव अस्ति न, भास्वतः. भास्वत इत्युक्ते प्रकाशं यद् ददाति तद्.
समीचीनं भगिनि,
भास्वतः सूर्यदेवः भास्वतः, भास्वतः सूर्यदेवात् कीदृश तत् गायत्रीमन्त्रस्य शक्त्या. ओहो, न न न, गायत्रीमन्त्रस्य शक्त्या मुक्तिं मुक्तिं कामयमानाः जनाः भास्वतः सूर्यदेवात् प्राप्यते, सद्बुद्धिः प्राप्यते.
हा, किन्तु तत्र
गायत्रीमन्त्रस्य शक्त्या किं प्राप्तवान् जनाः?
तत्र हा गायत्रीमन्त्रस्य शक्त्या ते बुद्धिं,
सद्बुद्धिः वा, सद्बुद्धिः वा,
सद्बुद्धिं, सद्बुद्धिं, समीचीनं, हा सद्बुद्धिम् इच्छन्ति, हा तत्र प्राप्तुम् इच्छन्ति. कस्मात्?
ओ
इत्युक्ते सूर्यदेवात्. किन्तु तत्र भास्वतः इति पदमस्ति, तत्र पुनः तत्र भास्वतः इति तत्र अन्वयः कुत्र भवेत्?
भास्वतः
इति पद
भा इत्युक्ते प्रकाश महोदय, सूर्य.
सत्यं भगिनि, हा
भास्वत् अस्ति, भास्वत्
सूर्यदेवतः
विशेषणं
देवः.
हा, तत्र भास्वत् इति पदम् अस्ति वा तत्र?
आं महोदय, भास्वत् भास्वतः,
भास्वत्
तस्य गुणः, देवस्य गुणः अस्ति.
समीचीनं, तर्हि तत्र भास्वत् इति, हा इति, अतः तत्र भास्वत् इति विशेषणम् अस्ति. भास्वत्, भास्वत् नाम सूर्यः, अथवा तत्र प्रकाशते यः, तत्र हा यः प्रकाशते. आम्,
वाक्यस्य अर्थं किम् अस्ति तत्र महोदय? मुक्तिं कामयमानः जनाः गायत्रीमन्त्रस्य शक्त्या, शक्त्या इत्युक्ते तृतीया विभक्ति.
सत्यं सत्यं भगिनि, नाम
गायत्रीमन्त्रस्य शक्त्या सद्बुद्धिः भास्वतः सूर्यदेवात् प्राप्यते इति.
नाम
सूर्यदेव एव गायत्रीमन्त्रस्य शक्त्या भास्वतः अस्ति.
न न न न शक्त्या भास्वतः इति न. ओ तदपि भवितुम् अर्हति खलु भगिनि. हा किन्तु इति नास्ति इति मन्ये तत्र प्रार्थि तत्र सद्बुद्धि
यतोहि सूर्यदेवमेव प्रार्थनां कुर्मः गायत्रीमन्त्रं पठति पठनसमये.
तर्हि तर्हि
तस्मिन्
तस्मिन्
अस्ति गायत्रीमन्त्रस्य शक्तिः.
हा तत् सत् समीचीनं भगिनि. तादृशमपि भवेत्. हा अतः तत्र सूर्यदेवात् सद्बुद्धि सद्बुद्धिं प्राप्तुम् इच्छन्ति जनाः.
ओ एवं वा. गायत्रीमन्त्रस्य शक्त्या भास्वतः प्राप्तः जनाः वा इत्र
तत्र पञ्चमी द्वे अपि कीदृशः सूर्य कीदृशात् सूर्यदेवात् इत्युक्ते भास्वतः
सूर्यदेवात्
केन कया इत्युक्ते शक्त्या कस्य इत्युक्ते गायत्रीमन्त्रस्य. समीचीनम्
इति मन्ये भगिनि. नाम तत्र अर्थद्वयं भवेत् यथा तत्र शोभा भगिन्या उक्तं. नाम एकः अस्ति तत्र ये जनाः मुक्तिम् इच्छन्ति ते किं कुर्वन्ति ते गायत्रीमन्त्रस्य जपं कृत्वा जपस्य जपं कृत्वा मन्त्रस्य बलेन ते
सद्बुद्धिः
सूर्यदेवात्
सद्बुद्धिः प्राप्ते
प्राप्तुम् एकः अर्थः. अन्यः अर्थः नाम ये जनाः तत्र मुक्तिम् इच्छन्ति ते सद्बुद्धिं सूर्यदेवात् पुनः सूर्यदेवात् एव प्राप्तुम् इच्छन्ति प्रार्थयन्ति. किन्तु तत्र कीदृशः सूर्यदेवः इत्युक्ते तत्र सूर्यदेवः अपि तत्र तत्र भास्वत् सूर्यः अस्ति. सः केन तत्र भास्वत् इति अभवत् नाम किमर्थं सः
गायत्रीमन्त्रस्य शक्त्या
शक्त्या सः प्रकाशते इति अपि भवितुमर्हति. द्वितीय अर्थः एव तत्र शोभा भगिनी भवती तत्र तादृश अर्थः एव भवत्या सूचितः खलु.
आं महोदय.
नाम सूर्यस्य प्रकाशः
सूर्यदेवस्य
प्रकाशः एव तत्र
गायत्रीमन्त्रस्य
शक्तिः एव इति. अस्तु तर्हि शक्तिः एव तत्र प्रकाशः इति चिन्तनम्. अस्तु
अस्तु
अस्तु समीचीनं भगिनि खलु. शक्तिः एव
शक्तिः एव सूर्यदेवमपि प्रकाशं ददति अथवा सूर्यदेवाय प्रकाशं ददति इति इत्युक्ते तत्र सूर्यदेवं प्रार्थयन्ति जनाः गायत्री यदा गायत्रीमन्त्रस्य पठनं कुर्वन्ति इति चिन्तयित्वा उक्तवती.
तादृशम् अस्ति. अस्तु समीचीनम्. अस्तु अग्रे वेदभगिनी समीचीनम्.
महर्षि अग्रे पठामि वा.
अस्तु अस्तु अग्रे तत्र वाक्यद्वयं पठतु तदनन्तरं.
महर्षिः वसिष्ठः च जात्या ब्राह्मणः आसीत्. महर्षिः वसिष्ठः च उपरि किमर्थं पारा इति किं वदामि संस्कृते परिच्छेद उपरि परिच्छेदे तत्र विश्वामित्रस्य विवरणं तत्र कृतवन्तः. अत्र वसिष्ठः अपि च इति शब्दस्य अर्थम् अहं वदामि.
यथा तत्र पूर्वं तत्र विश्वामित्रस्य विवरणम् आसीत् इदानीं तत्र
अत्र महर्षिः वसिष्ठः च जात्या ब्राह्मणः आसीत्. जात्या ब्राह्मणः किं वदामि सरलवाक्येन वसिष्ठः ब्राह्मणः जात्या इति एव अस्ति न तत्र ब्राह्मणः
तस्य जातिः ब्राह्मणः
तस्य जातिः ब्राह्मणः अस्ति.
महोदय तत्र महर्षि वसिष्ठः च किमर्थं दत्तमस्ति
इति एव तत्र वेदभगिनी उक्तवती खलु नाम पूर्वं तत्र विश्वामित्रस्य विवरणम् आसीत् वदन्ति अस्तु तत्र हा रामः एतत् सर्वं कृतवान् लक्ष्मणः च इति अग्रे वदामः खलु नाम तत्र रामः एतत् सर्वं कृतवान् इदानीं लक्ष्मणः अथ तत्र लक्ष्मण च अस्ति नाम लक्ष्मण अपि अस्ति इति चिन्तयतु केवलं लक्ष्मणः न पूर्वं रामः अस्ति तस्य अनन्तरं लक्ष्मणः तत्र समूहः अस्ति इति केवलं तत्र उल्लेखः समूहस्य उल्लेखः तावदेव नाम हा वदतु भगिनि
यः जात्या किमर्थं जात्या किमर्थं यः ब्रह्मं जानाति सः ब्राह्मणः
हा अत्र तादृश अर्थे नास्ति भगिनि नाम तत्र केवलं
ब्राह्मणजाति इति
ब्राह्मणः नाम तत्र यः ब्रह्मं जानाति इति अर्थे नास्ति केवलं तत्र
जन्मना इति
जन्मना जन्मना ब्राह्मणः इति तादृशः जातः जातिः जन्म जन्मसम्बद्ध अतः एव जातिः इति खलु
किन्तु सः कश्चन ब्रह्मर्षिः
एकनिमिषं भगिनि अतः तत्र उषा भगिनी नाम केवलं तत्र पूर्वं विश्वामित्रस्य विवरणम् आसीत् इदानीं
वसिष्ठस्य
विवरणम् इति तावदेव तद् वक्तुं तत्र च इति अस्ति तावदेव
किन्तु सः कश्चन ब्रह्मर्षिः एव आसीत् किन्तु
तादृशं
ब्राह्मणजात्यां तस्य जननं भवति परन्तु किन्तु सः कश्चन ब्रह्मर्षिः ब्राह्मणजात्यां भवति चेदपि ब्रह्मर्षिः न अभवत् तस्य कृते कोऽपि कार्यं करणीयमस्ति तदेव तत्र
मया न अवगतं नाम
जात्या अपि कोऽपि जात्या ब्राह्मण अस्ति इति अस्ति चेत् तद् ब्रह्मर्षिः पदवीं न प्राप्नोति ब्रह्मर्षिपदवीं प्राप्नोति चेत् प्राप्नुमः चेत् तत्र कोऽपि कार्यं करणीयं किमर्थं चेत् वेदस्य अध्ययनं करणीयम् अपि च अन्यपि कोऽपि कार्यम् अस्ति अहं न जानामि परन्तु
समीचीनं भगिनि नाम तत्र ब्राह्मणः इति भिन्नविषयः ब्रह्मर्षि इति भिन्नविषयः समीचीनं तत्र भेदः
सः कश्चन ब्रह्मर्षिः एव आसीत् तदेव एव आसीत्
किमर्थम् एव इत्युक्ते तत्र सः ब्रह्मर्षिः एव नाम तत्र सः पूर्वं तत्र अन्यविधऋषिः आसीत् इति नास्ति नाम सः ब्रह्मऋषिः एव आसीत् किन्तु तत्र विश्वामित्रः तादृशः नासीत् खलु नाम सः ब्रह्मर्षिषु तपं
कृत्वा
प्राप्तवान् किन्तु एषः तत्र ब्रह्मर्षिः एव आसीत् अतः
अस्तु विश्वामित्रः उग्राणि तपांसि समाचरत ब्रह्मर्षि स्थानं प्राप्तवान् परन्तु वसिष्ठः कश्चन ब्रह्मर्षिः एव आसीत्
नाम तत्र सः ब्रह्मर्षिः अभवत् इति नास्ति आसीत् इति अस्ति अग्रे शोभा भगिनी धन्यवादः भगिनी अस्तु शोभा
सततं निर्गुणं ब्रह्म उपासीनः सः महतीं सिद्धिं प्राप्तवान् सततं नितरां निर्गुणं ब्रह्म इत्यत्र निर्गुणम् इत्युक्ते सगुणब्रह्म नास्ति निर्गुणं निर्गुणब्रह्म इति प्रथमविभक्तौ तत्र ब्रह्म इति कर्मपदं द्वितीया नपुंसकलिङ्गे अस्ति इति कृत्वा ब्रह्म एव तं उपासीनः सः तत्र उपासीनः इति पुनः शानच् प्रत्ययः आस्थातोः उपासीनः तादृशः सः यः सततं निर्गुणं ब्रह्म उपासीनः सः महतीं सिद्धिं प्राप्तवान् इत्युक्ते तत्र पुनः महतीं सिद्धिम् इति द्वितीया विभक्तो भवति सिद्धिं कीदृशी इत्युक्ते महतीं सिद्धिं प्राप्तवान् स्त्रीलिङ्गे पदद्वयमपि स्त्रीलिङ्गे ज्ञानेन प्रज्वलमानस्य तस्य ब्रह्मतेजसः समक्षं विश्वामित्रस्य शरीरे प्रवहमानं ज्ञान क्षात्रबलं निष्प्रभं भवति स्म इदानीं यतोहि महर्षिवसिष्ठः महतीं सिद्धिं प्राप्तवान् अतः ज्ञानी अभवत् ज्ञानी आसीत् ज्ञानी अस्ति ज्ञानेन प्रज्वलमानस्य तस्य ज्ञानेन सह प्रज्वलति प्रज्वलयति अथवा प्रज्वलति द्वे अपि भवति तत्र इति मन्ये प्रज्वलमानस्य तस्य ब्रह्मतेजसः तस्मिन् इदानीं महत् ब्रह्मतेजस् तेजस् तेजः
तेजः
ब्राह्मतेजसः तस्मिन्
भवति तेजसः इति षष्टि
हा तेज तत्र तेजः प्रथमा विभक्त्यां वक्तुमिच्छामि चेत् तस्मिन् ब्राह्मतेजसः भवति अथवा तत्र अहं मन्ये महोदय ब्रह्मतेजस् तेजः इति तत्र तस्य इति यथा षष्ठी भवति तदा ब्राह्मतेजसः इति भवति वा इति चिन्तयामि तत्र ब्रह्मतेजसः ब्रह्मतेजः
प्रातिपदिक ब्रह्मतेजस्
ब्रह्मतेज
तत्र ब्राह्मतेजः इति एव
तत्र तत्र अस्ति मम चिन्तनमस्ति सम्यक् वा न वा इति कृपया वदतु ब्रह्मतेजः इत्यस्य तत्र षष्ठी भवति चेत् तदा वाक्यप्रयोगे ब्राह्मतेजसः इति भवति वा इति न न षष्ठी इति न भगिनी तत्र पदस्य एव परिवर्तनं भवति वा इति किन्तु भवान् वदति न न अस्ति इति
न न केवलं ब्राह्मतेजः इति
ब्राह्मतेजः एव
नाम तत्र ब्राह्म इति अपि तेजः तत्र तयोः नाम तत्र तेजः ब्रह्म
समस्तपदे तत्र वृद्धिः भवति
तत्र ब्राह्म इति तत्र भवति
अस्तु तर्हि तत्र प्रज्वलमानस्य तस्य ब्राह्मतेजसः इति षष्ठी तत्र समक्षं समक्षम् इत्युक्ते तस्य तुल्य तुलने तस्य समक्षम् इत्युक्ते यदा तत्र किं पुरतः भव पुरतः विश्वामित्रः
तत्र तस्य समीपे अस्ति अथवा अभिमुखम् अस्ति
समक्षम् इत्युक्ते समक्षम् इत्युक्ते
परस्परं तत्र समक्षं समकाले एव तत्र तिष्ठन्ति इति अपि भवति इति मन्ये समक्षं विश्वामित्रस्य शरीरे प्रवहमानं क्षात्रबलं निष्प्रभं भवति स्म इदानीं विश्वामित्रस्य अपि विश्वामित्रः अपि तत्र सामान्यः न तस्यापि क्षात्रबलम् अस्ति किन्तु महर्षिवसिष्ठस्य समक्षः यदा सः तिष्ठति समक्षं तिष्ठति यत् क्षात्रबलं तस्मिन् अस्ति तत् निष्प्रभं भवति इत्युक्ते तत्र निस् इति उपसर्गः अपगच्छति इति अर्थे प्रभं तत्र न्यूनं भवति तस्य तस्य बलस्य प्रभः न्यूनः भवति न्यून भवति स्म इत्युक्ते स्म इति अस्ति अतः सर्वदा भवति इति सर्वदा तस्य बलं
तत्र समीचीनं तथैव अस्ति
न्यूनम्
अपि तत्र यथा पूर्वं तत्र ब्राह्मतेजः इति आसीत् तादृशम् अत्रापि क्षात्रबलं
क्षात्रबलं
इति अस्तु समीचीनम् अपि प्रवहमान प्रवहते तत्र शरीरे बलं तत्र प्रवहते
प्रवहमानं तत्र प्रवहति इति तत्र यथा नदी प्रवहति इति तथा प्रवहमानं क्षात्रबलं विशेषविशेषणं तस्य शरीरे क्षात्रबलं प्रवहत् अस्ति
किमर्थं चेत् क्षत्रिय अस्ति कारणेन
प्रवहते अथवा प्रवहमानम्
प्रवहमानम् इति शानच् प्रत्ययः तत्र यतोहि
ओ अस्तु अस्तु प्रवह वहति इति इति उक्तवती
वहति इति
विश्वामित्रः क्षत्रियकुले अस्ति तत्कारणेन तस्य शरीरे प्रवहमानं क्षात्रबलम् इति
सत्यं सत्यं भगिनि तथैव अस्ति
तत्र महोदय प्रवहमानम् इति शानच् भवति वह वह धातुः तु प्रस्मैपदे एव अस्ति वहति इति
प्रवहते प्रवहते इति न
उपसर्गस्य
योजनेन भवति वा आत्मनेपदी अथवा उभयपदी अस्ति वा इति
वहति
वहति इति तु जानामि
वहति
प्रा इति उपसर्गस्य योजनेन योजने तत्र तत्र वह आत्मनेपदी अर्थः भिन्नः अस्ति इति कृत्वा योजितम् इति मन्ये तत्र प्रवहते इति प्रवहमानम् इति भवति तस्य निष्प्रभं भवति स्म
अहम् अष्टाध्यायी दृष्टवती भगिनी वहदातु उभयपति अस्ति
आम् आं भगिनि आम्
तदेव अस्तु एकः प्रश्नः अस्ति मम पार्श्वे उपासीनः तद् भगिनी उक्तवती शानच् इति किमर्थं तत्र धातु किम् किं तत्र भवति उपासीनः किमर्थं शानच् भवति
तत्र पूर्वस्मिन् वर्गे दृष्टवन्तः खलु भगिनी आस् धातोः आसीनः इति शानच् भवति इति
ओ
उपासीनः उपासीनः इति
ओके आस् धातु
आस् धातु
धन्यवादः
तस्य आसीनः इति भवति ईदासः इति सूत्रम् आसीत् तत्र हा अग्रे पठामि वा महोदय वसिष्ठेन मृत्युं वशीकुर्वतः महामृत्युञ्जयमन्त्रस्य रचना कृता वसिष्ठमहर्षिणा मृत्युं वशीकुर्वतः इत्युक्ते मृत्युम् एव तस्य वशीकरणं करोति
मृत्योः वशीकरणं करोति
तत्र पुनः कुर्वतः इति शत्रन्तपदं कुर्वतः न कुर्वतः कुर्वन् कुर्वतः
समीचीनम्
हा तत्र षष्ठी
कुर्वन्
शत्रन्त षष्ठी विभक्ति
षष्ठी एकवचनं
यतोहि तत्र महामृत्युञ्जयमन्त्रस्य इति अस्ति अतः वशीकुर्वतः महामृत्युञ्जयमन्त्रस्य
रचना कृता
रचना कृता तत्र रचना इति स्त्रीलिङ्गे अतः कृता इति
वसिष्ठे समीचीनं कर्मणि भूतकालार्थे अतः कृतप्रत्ययः
वसिष्ठेन इति तत्र कर्तृपदं तृतीयविभक्तौ भवति रचना कृता तत्र रचना इति प्रथमविभक्ति अपि च तदेव कर्मपदं तत्र अपि च कृता इति तां कर्मपदम् अनुसरति इमं मन्त्रम् आस्थापूर्वकं जपत्सु उपासकेषु दीर्घायुः स्वतः सिद्ध्यति इत्येवं रूपः विश्वासः जनेषु प्रचलन् अस्ति इमं मन्त्रं तत्र इमम् इति तत्र विभक्तिः इमं इत्यस्य इमम् अयं पदस्य यतोहि मन्त्रः इति अस्ति इमं मन्त्रं आस्थापूर्वकं जपत्सु उपासकेषु तत्र जपत्सु इति सप्तमी जपत्सु इत्युक्ते जपत्सु भवत्सु इति भवति भवान् तत्र प्रथमविभक्ति तत्र जपत् इति प्रातिपदिकं जपमानः इति भवति
न जपत्सु इति अस्ति तत्र जपत्सु उपासकेषु विशेषणविशेष्य
विशेषणविशेष्य
तर्हि उपासकः इति प्रथमविभक्ति एकवचने उपासकः कीदृशः उपासकः
जपन् जपन्
जपन्
जपन् अस्ति जपन् इत्यस्य जपत्सु इति बहुवचने सप्तमी
सप्तमी
जपति इति एकवचने भवति तर्हि जपन् उपासकः जपत्सु उपासकेषु दीर्घायुः स्वतः सिद्ध्यति इत्युक्ते इदं मन्त्रम् आस्थापूर्वकं जपत्सु उपासकेषु दीर्घायुः स्वतः सिद्ध्यति तत्र आस्था इति श्रद्धा इति अर्थे भवति इति मन्ये तत्र आस्थापूर्वकं जपत्सु उपासकेषु इति तेषु दीर्घायुः स्वतः सिद्ध्यति इति एवं रूपः
पूर्वकं प्रायशः श्रद्धा इति अर्थे किन्तु पूर्वकम् इति अस्ति तत्र किमस्ति
आस्थापूर्वकम्
आस्थापूर्वकम्
आस्थापूर्वकः
इत्युक्ते तस्मिन् यः यस्मिन् श्रद्धा अस्ति इति भवति वा महोदय
आस्थापूर्वकः इत्युक्ते आम्
नूतनपदमस्ति भगिनि अहं न जानामि
आस्थापूर्वकं
कच्
पूर्वकं मन्त्र जपत्सु आस्थापूर्वकं जपत्सु ओ तत्र कर्मपदं भवति इति मन्ये महोदय मन्त्रम् इमं मन्त्रम् आस्थापूर्वकं
तत्र
तत्र
अहं चिन्तयामि भगिनि तत्र जपत्सु इति जपति इति अस्ति खलु तत्र कीदृशजपं नाम क्रियाविशेषणं भवति वा इति आस्थापूर्वकम् इति क्रियाविशेषणं भवेत् इति
महोदय सत्यं सत्यं
खलु तत्र मन्त्रम् इति कर्मपदं साक्षात् मन्त्रं कर्मपदं
किन्तु
आस्थापूर्वकम् इति तादृशजपम् इति चिन्तयामि किन्तु नूतनपदमस्ति नूतनपदमस्ति न जानामि तत्र प्रायशः तत्र अष्टाध्यायी मध्ये तत्र कोशः इति अस्ति खलु तत्र यदि किमपि प्राप्नुमः इति पश्यामः कोऽपि स्थापयतु तत्र आस्थापूर्वकम् इत्युक्ते तस्य प्रयोगः अन्यत्र यदि पश्यामः
कोशे अपि द्रष्टुं शक्नुमः तत्र
अस्तु अग्रेसरं भगिनि
इत्युक्ते किं महोदय
स्वतः स्वतः नाम विना अन्यस्य आवश्यकता अन्य किमपि न आवश्यकं भगिनि नाम तत्र आस्थापूर्वकम् इति वयं चिन्तयामः तत्र सम्यक् रीत्या इति चिन्तयामः यदि ते सम्यक् रीत्या जपं कुर्वन्ति तेन जपेन एव तत्र दीर्घायुः भवति
स्वतः सिद्ध्यति
स्वतः नाम तत्र केवलं
स्वयं
स्वयम् इति तत्र स्वतः तत्र स्वेन तत्र तेन एव तत्र
महोदय जपन् आत्मनेव चलति वा
जपन् इति जपति इति भगिनि चिन्तयामि भगिनि तत्र अतः तत्र जपत्सु इति अस्ति खलु गच्छत्सु बालकेषु
सप्तमी बहुवचनं
सत्यं भगिनि शत्रन्तरूपं सप्तमी बहुवचनम् अतः परस्मै इति चिन्तनं
अतः
तत्र
मन्त्रं पुंलिङ्गे अस्ति वा महोदय
सत्यं भगिनि मन्त्रः इति चिन्तयामि
मन्त्रः महोदय इमं मन्त्रम् अस्ति न महोदय इमं तु
इमं किमस्ति अयम् इमौ
इमम् अथवा येन
द्विवचने अत्र यतोहि
मन्त्रमपि पुंलिङ्गे एव अस्ति न महोदय
सत्यं भगिनि अत्र किमस्ति जपत्सु नाम उपासकः तत्र किम् अस्ति भगिनि तत्र उपासकेषु
खलु
उपासकेषु अन्यत् अग्रे किम् अस्ति तत् किमस्ति
दीर्घ
एतादृश एतादृशेषु उपासकेषु किं भवति इति अग्रे दत्तमस्ति किन्तु तावत्पर्यन्तं स्वीकरोतु तत्र जपन् उपासकः इति स्वीकरोतु अस्तु प्रथमाविभक्तिरूपम् अस्ति जपन् उपासकः किं जपन् उपासकः नाम उपासकः जपति इति अस्ति खलु किं जपति तत्र जपति इति अस्ति तत्र कर्मपदं किम्
आस्थान
न न तद् भिन्नं किन्तु मन्त्रं जपन्
मन्त्रम्
कर्मपदं कर्मपदम् अस्ति उपासकः जप उपासकः
मन्त्रं
जपति
तत्र
अतः उपासकः मन्त्रं जपति इति किं भवति उपासकः मन्त्रं जपन् अस्ति खलु इदानीं उपासकाः मन्त्रं जपन्तः सन्ति तेषु इत्युक्ते सु उपासकेषु अथवा मन्त्रं जपत्सु उपासकेषु इति भवति
परन्तु उपरि गायत्री मन्त्रम् इति दत्तमस्ति न महोदय केवलं प्रश्नः गायत्री डाश् मन्त्रम् अस्ति भिन्नं पदम् अस्ति न महोदय किमपि
न न न न तत्र तत्रापि तत्र विभक्ति का तत्र वदतु
गायत्री प्रसिद्धं गायत्री मन्त्रं समाजाय प्रयच्छत
नाम तत्र प्रयच्छन् प्रयच्छन् इति अस्ति खलु तत्र प्रयच्छत इति प्रयच्छत् इति प्रातिपदिकं खलु तृतीया प्रयच्छत इति अस्ति खलु हा नाम सः ददाति खलु प्रयच्छति नाम सः ददाति खलु विश्वामित्रः महर्षिविश्वामित्रः
गायत्रीमन्त्र ददाति
ददाति कस्मै ददाति समाजाय ददाति
समाजाय
तर्हि किं ददाति मन्त्रं
गायत्री
गायत्रीमन्त्रं ददाति तर्हि मन्त्रमिति कर्मपदं तर्हि द्वितीयं भवति खलु समीचीनं वा भगिनि
समीचीनं महोदय धन्यवादः
हा समीचीनं अस्तु शोभभगिनी अग्रे इति तत्र स्वतः सिद्ध्यति
हा स्वतः सिद्ध्यति इति एवं रूपः विश्वासः जनेषु प्रचलन् अस्ति
इत्येवं रूपः विश्वासः
हा इत्येवं रूपः विश्वासः जनेषु प्रचलन् अस्ति जनेषु ईदृशः एतादृश
जनेषु किं किं प्रचलन् किम् अस्ति
विश्वासः
प्रचलन् अस्ति
कीदृशः इत्युक्ते इत्येवं रूपः इत्युक्ते
इत्येवं रूपः विश्वासः नाम रूपं कीदृशं
रूपं इत्युक्ते तत्र दीर्घायुः स्वतः सिद्ध्यति इति
हा नाम
दीर्घायुः सिद्ध्यति स्वतः सिद्ध्यति
पूर्वमस्ति हा इमं मन्त्रम् आस्थापूर्वकं जपत्सु उपासकेषु दीर्घायुः स्वतः सिद्ध्यति
इति एवं रूपः विश्वासः जनेषु प्रचलन् तत्र विशेषविशेषणं विश्वासः इत्येवं रूपः इत्यनयोः जनेषु प्रचलन् तत्र पुनः शत्रुप्रत्ययः प्रचलन् अस्ति
इति अस्ति समीचीनं भगिनि
इदानीमपि अस्ति प्रचलन्
इदानीमपि अस्ति समीचीनं भगिनि अस्तु अग्रे तत्र धन्यवादः भगिनि निवेदिता भगिनि अग्रे पठति वा
आं प्रयत्नं करोमि ऋग्वेदे वर्तमानस्य अस्य मन्त्रस्य स्वरूपम् एवं वर्तते त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुकम् इव बन्धान् मृत्योर्मुक्षीय मामृतात्
महोदय एकनिमिषं महोदय तत्र बन्धनान् इति अस्ति महोदय
बन्धनान् मन्ये
बन्धान् बन्धान्
अस्तु
अस्तु किन्तु भगिनि तत्र यत् तत्र दत्तमस्ति तस्य पठनं मास्तु केवलं तत्र ऋग्वेदे वर्तमानस्य अस्य मन्त्रस्य स्वरूपम् एवं वर्तते अस्तु अग्रे अग्रे पठतु भगिनि तत् त्यजामः एकदा इति
एवं वर्तते ऋग्वेदे वर्तमानस्य अस्य मन्त्रस्य स्वरूपम् एवं वर्तते
इति तावत् पर्यन्तं इदानीं मन्त्रं मास्तु इदानीम् अग्रे गच्छामः एकदा इति
ऋग्वेदे सप्तमी विभक्ति अस्ति ऋग्वेदः वर्तमानस्य अस्य मन्त्रस्य मन्त्रस्य विशेषणमस्ति वर्तमानस्य अस्य अतः षष्टिविभक्त्या विभक्तिमध्ये अस्ति
नाम तस्य स्वरूपं मन्त्रस्य स्वरूपं
एवं वर्तते
मन्त्रः कुत्र अस्ति मन्त्रः ऋग्वेदे वर्तते
ऋग्वेदे
अस्ति समीचीनं भगिनि इदानीं मन्त्रं त्यजामः अग्रे सरामः एकदा इति
एकदा सत्सङ्गतपश्चरणयोः मध्ये कतरः श्रेष्ठः इति विषये विवादः अभवत् कतरः तरतमभावः वा कतरः
हा सत्यं नाम द्वयोः मध्ये कः इति
द्वयोः मध्ये कः श्रेष्ठः सत्सङ्गतपश्चरणयोः द्वयोः द्विवचनमस्ति
नाम सत्सङ्गः श्रेष्ठः वा
सत्सङ्गः
तपश्चरणः
तपश्चरणः
सः श्रेष्ठः इति तयोः मध्ये
तथा च विश्वामित्रं मध्ये
विषयः अस्ति विषयः किन्तु अस्ति
तपश्चरणयोः सत्सङ्गतपश्चरणमध्ये कः श्रेष्ठः
इति एव तत्र विवादः मध्ये नास्ति विषयोः मध्ये
विषयोः मध्ये
मध्ये कः श्रेष्ठः इति तयोः मनयोः मध्ये तत्र विवादः जातः
वसिष्ठः सत्सङ्गस्य पक्षे आसीत् सः सत्सङ्गस्य पक्षस्य अनुसरणम्
तस्य चिन्तनमस्ति सत्सङ्गः एव
सत्सङ्गे
अस्ति
सः मन्ये
इति सः मन्यते
सः मन्यते विश्वामित्रस्य तु स्वतपस्यायाम् अभिमानम् आसीत् किन्तु विश्वामित्र अभिमानी आसीत्
अपि सः बहु तप कृतवान् खलु तेनैव तत्र ब्रह्मर्षिपदवीं प्राप्तवान् अतः तत्र तस्य मनसि तत्र तपसि अभिमानः अस्ति
तपसि तपस्यां षष्ठी नै सप्तमी
सप्तमी तपः इति अस्ति खलु
तपस्याम् अभिमानः आसीत्
अत्र तपः इति भिन्नम् अस्ति तपस्यायां
सकारान्त शब्दः अस्ति
तपः इति सकारान्तपदं किन्तु तत्र स्वतपस्यायाम् इति तत्र तपस्या इति
तपस्या श्रीलिङ्गे माला एव चलति
समीचीनं
माला चलति
अतः एव तत्र स्वतपस्यायाम् इति अस्ति
तु अव्ययपदमस्ति
समीचीनम् अग्रे
परस्परं विवादमानयोः एतयोः विवादे असमाहिते च तौ क्षीरसागरे वर्तमानस्य भगवतः शेषनागस्य सविधे निर्णयार्थम् अगच्छताम् विवादमानयोः एतयोः विवादमान इति शानश्रूपमस्ति
सत्यं
विवदमान विवदमानयोः एतयोः
इति
षष्टिविभक्ति अस्ति विवादे असमाहिते च समाहिते
नाम तत्र विवादे तत्र किमपि तत्र
सोल्यूशन् नास्ति
हा नाम तत्र समान समाधानम् अथवा तत्र
समानमतं
समानमतं नाम तत्र तत्र विवादे तत्र हा तत्र समस्या एव
having not convinced
samasya samadhanam nasti
ha samadhanam
nasti atah
ha atah tatra astu ha
tarhi dvau shirasagare vartamanasya tau dvau shirasagarah saptami vibhakti asti vartamanasya bhagavat
ha
takaranta pullingam प्रथम एकवचनं
न तत्र भगवतः इति
वर्तमानस्य भवतः सरि षष्टि
षष्टि एकवचनं समीचीनम्
एकवचनं वर्तमानस्य इति विशेषणमस्ति भगवतः पदस्य शेषनागस्य सविदे समीपं
समीचीनं
निर्णयार्थम् अगच्छताम् द्वयो द्विवचनमस्ति अगच्छताम्
इति अस्ति अतः निर्णयं
इच्छतः अतः
समीपम्
अगच्छताम्
इति अस्ति
अग्रे पठामि वा
अग्रे इदानीं मास्तु भगिनि तत्र समयः जातः किन्तु तत्र इदानीम् अग्रिमसप्ताहे पश्यामः तत्र भगवान् किम् उक्तवान् इति तर्हि तत्र विवादः अस्ति सत्सङ्गः वा तपश्चरणः वा कः श्रेष्ठः तयोः इति अस्ति अतः तत्र केवलम् एकमेव पुटम् अस्ति अतः तत्र अग्रिमसप्ताहे समापयितुं शक्नुमः अपि तत्र जपतः जनान् अपि तत्र आस्थापूर्वकम् इति विषये प्राप्नुमः
ध्वनिः नास्ति
ध्वनिः नास्ति वा महोदय
अस्ति महोदय
श्रूयते वा
आमां
श्रूयते
अस्तु तर्हि तत्र अग्रिमे सप्ताहे तत्र कथां समापयामः किन्तु इदानीं तत्र शोभा भगिनी तत्र अन्ते तत्र प्रार्थनां शान्तिमन्त्रं वदति वा भगिनि
राम ॐ पूर्णमदः पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिश्शान्तिश्शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ओम् धन्यवादः महोदय
धन्यवादः भगिनी धन्यवादः